इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। बजेट सत्रस्य त्रिदिवसीया विशेष संसत्सभा अद्यारभ्य 18 दिनांकपर्यन्तं प्रचलति। इयं सभा मुख्यतया नारीशक्ति वंदन अधिनियमस्य संवैधानिक संशोधनेषु केन्द्रीभवति। लोकसभा राज्यसभासु महिलानां कृते 33% आरक्षणस्य प्रस्तावं कृत्वा 23-2000 वर्षे पारितस्य नारीशक्ति वंदन अभिधिनियमस्य कार्यान्वयनस्य मार्गं प्रशस्तं कर्तुं सर्वकारः 3 संशोधक विधेयकान् प्रवर्तयिष्यति। तेषां नामानि यथा संविधान विधेयकः 20-26, केन्द्रशासित प्रदेश विधि संशोधन विधेयकः 20-26 तथा परिसीमन विधेयकः 20-26 सन्ति। संसदीय कार्यमंत्री किरेन रिजिजुः आश्वासनं दत्तवान् यत् अस्मिन् संशोधन विधेयके प्रत्येकं राज्यस्य समुदायस्य क्षेत्रस्य च आकांक्षानां अवधानं दत्तमस्ति।
ये सिर्फ सरकार का बिल नहीं है, ये सब पॉलिटिकल पार्टी और एक तरीके से पूरा देश का बिल है। सब मिलकर के एक आवाज और एक मत से नारी शक्ति वंदन अधिनियम को पारित करेंगे।
एतन्मध्ये कांग्रेस दलस्य अध्यक्षः राज्यसभायां विपक्षनेता मल्लिकार्जुन खर्गे उक्तवान् यत् विपक्षदलानि महिला आरक्षण विधेयकस्य पक्षे सन्ति, किन्तु विधेयकं यथा आनयन्ति तस्य विषये आशंका वर्तते। कांग्रेस नेता जयराम रमेशः उक्तवान् यत् विपक्षदलानि संसदः सदनद्वयेऽपि भागं गृहीष्यन्ति, अथ परिसीमन प्रावधानानां विरोधं करिष्यन्ति। प्रधानमन्त्री नरेन्द्र मोदी तथा आस्ट्रिया चांसलर डॉक्टर क्रिश्चियन स्टॉकरः अद्य नवदिल्ली नगरे विविध क्षेत्रेषु द्विपक्षीय साहकार्यं सुदृढं कर्तुं चर्चां करिष्यतः। उभौ पक्षौ बहुपक्षीय मञ्चेषु सहयोग सहितं परस्पर हितस्य क्षेत्रीय वैश्विक विषयेषु अपि विचाराणां आदान प्रदानं करिष्यतः। सामाजिक सन्देशे विदेशमंत्री डॉक्टर एस जयशंकरः विश्वासं प्रकटितवान् यत् प्रधानमन्त्रिणा मोदिना सह डॉक्टर स्टॉकरस्य चर्चाभिः विभिन्न क्षेत्रेषु अधिक सहकार्यस्य नूतनाः मार्गाः उद्घाटिताः भविष्यन्ति। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः प्रोक्तवान् यत् भारतेन विगत वित्तवर्षे 60-80 अर्बुद अमेरिकी डॉलरस्य अभिलेख निर्यातः साधितः। सामाजिक माध्यमे श्रीगोयलेन उक्तं यत् वैश्विक संकटस्य मध्येऽपि प्राप्तम् इदं लक्ष्यं देशस्य वैश्विक व्यापार पदचिह्न विस्तारस्य वर्धमानं सामर्थ्यञ्च प्रतिबिम्बयति। सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे कृताः नवव्यापारसन्धयः एतां गतिम् अधिकां कुर्वन्ति, नूतन विपणीनाम् उद्घाटनं कारयन्ति, क्षेत्रेषु अधिकान् अवसरान् उद्घाटयन्ति च। गृहमन्त्रालयेन घोषितं यत् जनगणना 20-27 इत्यस्य क्षेत्र संचालनस्य प्रथमचरणं अद्य बहुषु राज्येषु केन्द्रशासित प्रदेशेषु च आरब्धं भविष्यति। मन्त्रालयेन विज्ञप्तौ उक्तं यत् राष्ट्रिय राजधान्यां दिल्ल्यां एनडीएमसी प्रदेशे अण्डमान निकोबार द्वीपेषु गोवा कर्णाटक लक्षद्वीप मिजोराम ओडिशा सिक्किम इत्यादिषु क्षेत्र संचालनम् अद्यैव आरभ्यते। मन्त्रालयेन उक्तं यत् प्रथमवारं प्रवर्तितायाः स्वगणना सुविधायाः उत्साहवर्धकं प्रतिक्रिया प्राप्ता, यत्र प्रायः 12,00,000 गृहाणि स्वविवरणं ऑनलाइन रूपेण सफलतया प्रदत्तवन्तः। राष्ट्रिय महिला आयोगेन महाराष्ट्रस्य नासिक नगरे टाटा परामर्श सेवानां बीपीओ एकके महिलानां यौन उत्पीडनस्य कथित घटनानां विषये मीडिया रिपोर्ट सम्बद्धानां संज्ञानात् परं स्वयं प्रेरित अभ्यर्थना सुओ मोटु इति स्वीकृता वर्तते। एकस्मिन् वक्तव्ये आयोगेन उक्तं यत् एतस्य घटनायाः विस्तृत परीक्षां कर्तुं तथ्यनिर्णय समित्याः गठनं कृतमस्ति। समितिः शनिवासरे घटनास्थानं गमिष्यति, 10 कार्यदिनानाम् अभ्यन्तरे आयोगाय स्वप्रतिवेदनं दास्यति। आईपीएल क्रिकेट क्रीडायां गतरात्रौ रॉयल्स चैलेंजर्स बेंगलुरू दलेन लखनऊ सुपर जॉयंट्स दलं 5 पराजितम्। अद्य सायं 7:30 मुंबई इंडियंस अथ पंजाब किंग्स दलयोर्मध्ये क्रीडा भविष्यति। इति वार्ताः।